सचवाग्भिः प्रशस्ताभिः गमिष्यन् पूजितस्तया तस्माद्देशादपक्रम्य चिन्तयामास वानरः अल्पशेषमिदं कार्यं दृष्टेयमसि ते क्षणा त्रीनुपायानतिक्रम्य चतुर्थैः दृश्यते न सामरक्षः सुगुणाय कल्पते न दानवर्थोपचितेषु युज्यते न भेदसाध्या बलदर्पिता जनाः पराक्रमस्तेव ममेह रोचते न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते हतः प्रवीराश्चरणे हि राक्षसाः कथञ्चिदीयुर्यदि हद्यमार्दवम् कार्ये कर्मणि निर्दिष्टे यो बहोऽन्यपि साधयेत् पूर्वकार्याविरोधेन सकार्यं कर्तुमर्हति न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधरे इहैव तावत् कृतनिश्चयो ह्यहं यदि प्रजेयं प्लवगेश्वरालयं परात्मसम्मर्दविशेषतत्तवित् ततः कृतं स्यान्मम भर्तृशासनम् कथं नु खल्वद्य भवेत् सुखागतम् प्रसह्य युद्धं मम राक्षसैः सह तथैव खल्वात्मबलं च सारवत् सम्मानयेन्मां च रणे दशाननः ततः समासद्य रणे दशाननम् समन्त्रिवर्गं सबलप्रियायिनम् हृदि स्थितं तस्य मदं बलं च वै सुखेन मत्वाहमिदः पुनर्व्रजे इदमस्य निशंसस्य नन्दनापममुत्तमं वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ततो महत्साश्व महारथद्विपं बलं समादेक्षति राक्षसाधिपः त्रिशूलकालाय सपट्टसायुधं ततो महद्युद्धमिदं भविष्यति अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्य विक्रमः निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयं ततो मारुतवत्क्रुद्धः मारुतिर्भीमविक्रमः ऊरुवेगेन महता द्रुमां क्षेप्तुमथारभते ततस्तु हनुमान् वीरः बभञ्ज प्रमदावरं मत्तद्विजसमाघुष्टं नानाद्रुमलतायुधं तत्त्वनं मथितैर्वृक्षैः भिन्नैश्च सलिलाशयैः चूर्णितैः पर्वताग्रैश्च बभूवा प्रियदर्शनं नानाशकुन्तविरुदैः प्रभिन्नैः सलिलाशयैः ताम्रैः किसलैः क्लान्तैः क्लान्तद्रुमलतायुधं न बभौ तद्दनं तत्र दावानलहतं यथा व्याकुलावरणारेजुः विह्वला इव तालताः लतागृहैश्चित्रगृहैश्च नाशितैः महारगैर्वालमृगैश्च निर्धुतैः शिलागृहैर्मथितैस्तथा गृहैः प्रनष्टरूपं तद भून्महद्वरं सा विह्वला शोकलता प्रधाना वनस्थली शोकलता प्रधाना जाता दशास्य प्रमदावनस्य कपेर्बलाद्धिप्रमदावनस्य सतस्य कृत्तार्थमतेर्महाकपिः महद्दलीकं मनसो महात्मनः युत्सुरेको बहुभिर्महाबलैः श्रियः ज्वलन्तोरणमास्थितः कपिः इत्यार्षे श्रीमद्रामायणे सुन्दरकाण्डे एकचत्वारिंशत् सर्गः।